एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः आगामिनो मार्ग शीर्ष मासस्य चतुर्थे दिवसे सम्पत्स्यमानाय प्रतिनिधि सभायाः प्रदेश सभानाम् च निर्वाचनाय प्रत्यक्ष निर्वाचन प्रणाल्याः पक्षे मनोनयन पत्रम् पंजीकुर्वताम् प्रत्याशिनाम् इह सम्बद्ध निर्वाचनाधिकृतस्य कार्यालये नामावलिः प्रकाशिता वर्तते। अस्यैव आश्विनस्य त्रयोविंशे दिवसे पंजीकारित मनोनयन पत्राणाम् प्रत्याशिनाम् मनोनयन पत्राणि निवेदनानि च अनुसन्धाय नामावलिः प्रकाशितेति निर्वाचनायोगो ज्ञापयति। अद्य प्रत्याशिनाम् नाम प्रत्यावर्तनस्य प्रत्याशिनाम् अन्तिम नामावली प्रकाशनस्य प्रत्याशिभ्यो निर्वाचन चिन्ह प्रदानस्य च कार्यक्रमो वर्तते। एवमेव समानुपातिक निर्वाचन प्रणाल्याः पक्षे प्रकाशितायाम् आन्तरसूच्याः सूचनायाम् आश्विनस्य त्रयोविंशात् दिवसात् ऊनत्रिंशम् दिवसम् यावत् आन्तरसूच्याम् समाविष्ट नाम्नाम् प्रत्याशिनाम् योग्यतायाः सम्बन्धे स्वत्वज्ञापन विरोधनयोः निवेदन प्रस्तुतेः कार्यक्रमो वर्तते। कार्तिकस्य नवमे दिवसे प्रत्याशिनाम् अन्तिमायाः आन्तरसूच्याः प्रकाशनस्य कार्यक्रमोऽस्ति। निर्वाचनायोगेन एतद् विक्रमवर्षीयायाः आचार संहितायाः प्रतिकूलनत्वेन कतिपय सर्वकारीय कर्मचारिणाम् सार्वजनिक संस्थासु कार्यरतानाम् कर्मचारिणाम् शिक्षकाणाम् च राजनैतिक दलानाम् प्रत्याशिनाम् च पक्षे विपक्षे वा प्रचार प्रसारयोः संलग्नतायाः पुष्टिभवनमनु दण्डनम् प्रारब्धम् वर्तते। प्रचार प्रसारयोः संलग्नैः कर्मचारिभिः शिक्षकैश्च प्रत्याशिभिः सह छायाचित्राङ्कनम् विधाय वर्धापन शुभकामना प्रदानम् राजनैतिक दलानाम् प्रत्याशिनाम् च सामग्रीणाम् प्रसारणम् स्वीकरणम् चेति घटनाः अनुगमनस्य क्रमे प्राप्ताः सन्तीति आयोगेन ज्ञापितम् वर्तते। निर्वाचनायोगाधिनियमे आचार संहितायाः अनुगमनस्य दण्डनस्य च प्रबन्ध व्यवस्थितो वर्तते। आयोगेन तादृशेभ्यः कर्मचारिभ्यः स्पष्टीकरणस्य अवसरम् प्रदाय दोषिषु दृष्टेषु सत्सु सचेष्टीकरणाय विभागीय दण्डनाय निलम्बन पर्यन्त दण्डनाय वा सम्बद्ध निकायाय आदेश प्रदान क्षमा वैधानिकी व्यवस्था वर्तते। सत्ता गठबन्धनस्य दलैः गठबन्धनस्य आधिकारिक प्रत्याशिनाम् विरूद्धे प्रस्तुत प्रत्याशिताः गठबन्धनस्य दलानाम् नेतारः कार्यकर्तारश्च प्रत्याशिताम् प्रत्यावर्तयितुम् निर्दिष्टाः सन्ति। बालवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टस्य गठबन्धनस्य दलानाम् शीर्ष नेतृणाम् उपवेशस्य पश्चात् संयुक्त विज्ञप्तिम् प्रकाश्य अद्य दिवा एकवादनस्य अभ्यन्तरे प्रत्याशिताम् प्रत्यावर्तयितुम् विद्रोही प्रत्याशिनः निर्दिष्टाः सन्ति। प्रधानमन्त्रिणा नेपाली कांग्रेस दलस्य सभापतिना च सेवादेवाभिधेन नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन नेकपा एकीकृत समाजवादी दलस्य अध्यक्षेण माधव कुमार नेपालेन राष्ट्रिय जनमोर्चा दलस्य अध्यक्षेण चित्रबहादुर केसी इत्यनेन च प्रकाशितायाम् संयुक्त विज्ञप्तौ निर्धारित समय सीमायाः व्यन्तरे विद्रोही प्रत्याशिभिः स्वीय प्रत्याशितायाम् अप्रत्यावर्तितायाम् सत्याम् दलात् निष्कासनम् विधातुमपि प्रधानमन्त्री शेरबहादुर देउवा निकट भविष्यति एव नागरिकत्वे तर सम्बद्धादि नियमम् संशोधयितुम् प्रतिबद्धताम् व्यनक्ति। आवासीयतर नेपाली संघस्य वार्षिक साधारण सभाम् इह सम्बोधयन् प्रधानमन्त्री देउवा अवदत् नागरिकता सम्बद्ध विषय योऽपि निकट भविष्यति नागरिकत्वे तर सम्बद्धादि नियमे संयोक्ष्यते असौ आत्मनाम शिल्पम धनम च नेपालस्य विकासाय प्रयोक्तुम् आवासीयतर नेपालिनः आह्वयत। कार्यक्रमे गृहमन्त्री बालकृष्ण खाँड अकथयत् आवासीयतर नेपालेभ्यो नेपालस्य संविधानस्य अनुसारेण नागरिकताम् दापयितुम् वर्तमान सर्वकारः प्रतिबद्धो वर्तते। मन्त्री खाँड नागरिकता विधेयकम् सर्वेषाम् दलानाम् सहमत्या कोऽपि नेपाली नागरिकः नागरिकताविहीनो न भवतु आवासीयतर नेपालिनश्च संविधानस्य अनुसारेण नागरिकताम् लभेर नीति उद्देश्येन सर्वकारेण आनीतमिति समस्पष्टयत्। राष्ट्रिय जनमोर्चा दलस्य अध्यक्ष बागलुङ जनपदस्य प्रथम निर्वाचन क्षेत्रात् प्रतिनिधिसभायाः सदस्यस्य प्रत्याशी च चित्रबहादुर केसी संघस्य प्रदेशानाम् च आसन्न निर्वाचनम् सत्तारूढ गठबन्धनेन जेतव्यमित्यत्र बलम् ददाति। गठबन्धनस्य दलैः ह्यो बागलुङ जनपद मुख्यालये आयोजिते पत्रकार मेलने असौ अवोचत् निर्वाचनम् अग्रगमन कारिण्या परिवर्तन विरोधिन्या वा कया शक्त्या जेतव्यमिति गभीर प्रश्न उद्भूतो वर्तते। कर्णाली प्रदेशे जलविप्लव भूस्खलनेषु निपत्य मृतानां जनानां संख्या त्रयस्त्रिंशत् प्राप्येति कर्णाली प्रहरी कार्यालयेन ज्ञापितं वर्तते। कर्णाली प्रदेशस्य प्रदेश प्रहरी कार्यालयस्य प्रवक्तुः वरिष्ठ प्रहरी वरिष्ठोपरीक्षकस्य माधव प्रसाद श्रेष्ठस्य अनुसारेण जुम्ला जनपदे नव मृगु जनपदे अष्टौ कालीकोट हुम्ला जनपदयोः प्रति जनपदं चत्वारः जाजरकोट जनपदे त्रयश्च जनाः मृताः सन्ति। एवमेव डोल्पा सल्यान जनपदयोः प्रति जनपदं जनद्वयं दैलेख जनपदे च एको जनः मृताः सन्ति। अधुनापि द्वाविंशतिर् जना विलुप्ताः सन्ति। एतेषाम् अन्वेषण कार्यं विधीयमानं वर्तते इति प्रहरी प्रवक्ता श्रेष्ठः अज्ञापयत्। विलुप्तेषु सर्वाधिकः कालीकोट जनपदस्य एकेन प्रहरिणा सह विंशतिर् जनाः सन्ति। अविरलवृष्टेः कारणेन कर्णाली प्रदेशे शतचतुष्टयम् अशीतिश्च गृहपरिवाराः विस्थापिताः वर्तन्ते। नेपालस्य उड्डयन सुरक्षायाम् उल्लेखनीय सुधारः सम्भूतोऽस्तीति यूरोपीय संघस्य प्राविधिक समूहेन प्रतिक्रिया प्रदत्तास्ति। नेपालस्य विमानोड्डयन क्षेत्रस्य विषयम् अध्येतुम् नेपालं प्राप्त संघस्य अन्तर्गतस्य यूरोपीय विमानोड्डयन सुरक्षा संस्थानस्य समूह नेपालस्य समग्र विमानोड्डयनस्य सुरक्षाया विषय अनुकूलोऽस्तीति नेपाल नागरिकोड्डयन प्राधिकरणस्य महानिर्देशक प्रदीप अधिकारी ज्ञापयति। संघस्य प्राविधिक समूहेन विहितस्य अध्ययनस्य विषयं ज्ञापयितुं प्राधिकरणे ह्य आयोजिते पत्रकार सम्मेलने महानिर्देशकः अधिकारी संघस्य प्राविधिक समूहेन प्रदत्ते प्रारम्भिक प्रतिवेदने दशवर्षेषु नेपालेन विमानोड्डयन सुरक्षायां महती उपलब्धिः अधिगतेति प्रतिक्रिया प्रदत्तास्तीति अज्ञापयत्। नेपाली सेनाया संयुक्ताधिराज्यस्य वेल्स ब्रेकन स्थाने अस्यैव आश्विनस्य द्वाविंशात् दिवसात् चतुर्विंशं दिवसं यावत् सञ्चालिते एतद् ख्रीष्टवर्षीय क्याब्रियन पेट्रोल नामधेये अभ्यासे रजत पदकं प्राप्तं वर्तते। बेलायदेशीय सैनिकैः सह चतुर्विंशतेर् देशानाम् एकादशाधिक शतस्य समूहानां सहभागितायां सम्पन्ने तस्मिन् अभ्यासे सेनान्यः बलबहादुर आले भिदस्य नेतृत्वे दश सदस्यीय समूह प्रत्यस्पर्धत। युद्धकालिक विशेष परिस्थितिम् प्रकल्प्य शत्रुपक्षस्य गतिविधिन् संयोज्य सञ्चालिते विश्वस्तरीय तस्मिन् सैन्याभ्यासे सहभागिनः समूहस्य शारीरिक सहिष्णुतायाः व्यावसायिक दक्षतायाश्च मूल्यांकनम् विधीयते इति सैनिक जनसम्पर्क सूचना निर्देशनालयो ज्ञापयति। सय कठिने भौगोलिक क्षेत्रे सञ्चालिते तस्मिन् अभ्यासे सहभागिभिः दिनद्वय आयुधैः आसन्न 50 पौण्ड तोलन परिमाणस्य उपकरणैः सैन्यावश्यक सामग्रीभिश्च सह आसन्न 50 किलोमीटर मिता दूरी पूरयितव्या भवति इति समाचारः।